एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। रासोपा नाम्नो राष्ट्रिय स्वतन्त्र दलेन अद्य भाद्र मासस्य प्रथम दिवसात् नागरिकाः नीतिः नेतृत्वञ्चेति कार्यक्रमः सञ्चाल्यते। कार्यक्रमस्य अन्तर्गतम् रासोपा दलस्य मन्त्रिभिः मासे न्यूनतोपि एकवारम् अनिवार्य रूपेण केन्द्रीय कार्यालये उपस्थाय नागरिकैः दलपंक्त्या च सह प्रत्यक्षम् संवादः करणीयो वर्तते। रासोपा दलस्य संसदीय दलस्य सचेतक पदीयः प्रकाश चन्द्र परियार साधारण जनानां विषयाणां राज्यस्य नीति निर्माण स्तरे क्रियान्वयन स्तरे च योजनाय सेतोः कार्यम् विधातुम् कार्यक्रमोऽयम् सञ्चाल्यमानोऽस्तीति समस्पष्टयत्। कार्यक्रमस्य अन्तर्गतम् प्रथमचरणे मन्त्रिभिः नागरिकाणाम् समस्याः विषयाश्च श्रोष्यन्ते, ततः द्वितीयचरणे मन्त्रिणाम् दलस्य केन्द्रीय समितेः सदस्यानाम् प्रतिनिधिसभा सदस्यानाम् च मध्ये संयुक्तोपवेशमुपविश्य प्रथमचरणे नागरिकेभ्य प्राप्तानाम् परामर्शनानाम् आधारेण देशस्य सामयिक बहुआयामिक नीतिगत विषयेषु विमर्शनम् विधास्यते। नेपाली कांग्रेस दलस्य संस्थापनेतर पक्षस्य त्रिदिवसात्मकम् राष्ट्रिय सम्मेलनम् पञ्चसूत्रात्मक निष्कर्षेण सह ह्य सम्पन्नम् वर्तते। नेपाली कांग्रेस दलस्य पूर्व महामन्त्रिण डाक्टर शशांक कोइराला विधस्य संयोजकत्वे श्रावण मासस्य एकोनत्रिंशात् दिवसात् काष्ठमण्डपे आयोजितस्य त्रिदिवसात्मक सम्मेलनस्य समापनावसरे चतुर्दश महाधिवेशनात् निर्वाचिताया केन्द्रीय कार्यसमितेः निर्णयेन आयोजनायां च पञ्चदश महाधिवेशनम् सम्पादयितुम् निर्णीतमस्तीति सार्वजनिक कृते निष्कर्षे उल्लिखितम् वर्तते। सम्मेलनेन देशः कठिन स्थितौ वर्तते। राष्ट्रिय लोकतन्त्रवादी शक्तिभिः सह संवादम् कृत्वा राष्ट्रियतायै लोकतन्त्रस्य सुदृढीकरणाय च क्रियाशीलतायाः सनातनधर्मस्य राष्ट्रस्य परिचयस्य रूपेण स्वीकरणस्य च आवश्यकतायाः प्रतिपादन पुरस्सरम् अग्रे वर्धितुम् प्रतिबद्धता व्यक्तास्तीति निष्कर्षे उल्लिखितम् वर्तते। सम्मेलनेन त्रिदिवसात्मक कार्यक्रमे प्रस्तुतान् प्रस्तावान् परामर्शनानि च समाविश्य सपरिमार्जनम् पारितस्य प्रस्तावस्य अभिलेखनम् विधातुम् केन्द्रीय सदस्यस्य एनपी साउदी इत्यस्य त्रिसदस्यात्मक समुदायाय दायित्वम् प्रदत्तम् वर्तते। सम्मेलनस्य समापनावसरे पूर्व प्रधानमन्त्री दलस्य निवर्तमान सभापतिश्च शेरबहादुर देउवा न्यायालयेन आत्मने सदैव न्याय प्रदीयमानोऽस्ति, त्यतः अधुनापि न्यायालय प्रति पूर्णतः विश्वासोऽस्तीति उदैरयत्। अविरलवृष्टेः पश्चात् जाजरकोट जनपदस्य भेरी नगरपालिकायाः द्वितीय वडा क्षेत्रस्य रिसाङस्थाने भूस्खलने निपत्य त्रयो जनाः मृताः, जनद्वयम् विलुप्तम् च वर्तन्ते। भूस्खलनेन आहता द्वितीय वडा क्षेत्रस्य सालधारा स्थानस्य द्वापञ्चाशद् वर्षीय केदार कार्की उपचारस्य क्रमे कोवलपुर चिकित्सा महाविद्यालये मृतोऽस्ति। विलुप्तेष् चतुर्ष् चतुःपञ्चाशद् वर्षीयायाः उमासी मखत्री इत्यस्य, 83 वर्षीयायाः रति खत्री इत्याख्यायाश्च सबौ प्राप्तौ स्तः इति सशस्त्र परिबल नेपालस्य सहप्रवक्ता शैलेन्द्र थापा असूचयत्। भूस्खलने विलुप्तानाम् जनानाम् उद्धाराय अन्वेषणाय च नेपाली सेनया सह सशस्त्र परिनिरीक्षकस्य कमल कार्किण नेतृत्वे प्राप्त विपद व्यवस्थापन प्रशिक्षणस्य सशस्त्र प्रहरिणः नेपाल प्रहरिणश्च संयुक्त समूह परिचालितो वर्तते। भूस्खलनेन अष्टोग्रियाणि प्रभावितानि वर्तन्ते। अत्रान्तरे कर्णाली प्रदेश सर्वकारेण रिसाङ स्थानस्य पीडित परिवारेभ्य सहयोग सामग्री प्रेषिता वर्तते। एवमेव बागलुङ जनपदस्य निशीखोला ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य धाराटोल वसतौ भूस्खलनेन अष्टसु गृहेषु क्षतिः प्राप्तास्ति। अधुनापि तत्र क्षेत्रे चत्वारिंशत् गृहाणि भूस्खलनस्य उच्च संकटे सन्तीति निशीखोला ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य वडाध्यक्ष कुबेर विश्वकर्मा असूचयत्। अत्रान्तरे सर्वकारेण पश्चिम नेपालस्य भूस्खलन प्रभावितेषु क्षेत्रेषु भौगर्भिकम् अध्ययनम् करिष्यते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य ह्य उपविष्टेन जलवायु प्रतिकार्य नेतृत्व समूहस्य उपवेशेन रोपा जनपदस्य थावङ ग्रामपालिकायाः, सुनछारी ग्रामपालिकायाश्च, बाजुरा जनपदस्य त्रिवेणी नगरपालिकायाः, जाजरकोट जनपदस्य भिरी नगरपालिकायाश्च भूस्खलन प्रभावित क्षेत्राणाम् प्रारम्भिकम् भौगर्भिकम् अध्ययनम् संविदातुं निर्णीतं वर्तते। नेतृत्व समूहेन प्राधिकरणस्य नेतृत्वे सम्बद्धानां निकायानां प्रतिनिधीनां सहभागित्वे त्रिदिवसाभ्यन्तरे अध्ययन समूहं कार्यस्थलेषु प्रेषयितुं निर्णीतमस्ति। समूहे जलवायु वातावरण विज्ञान विभागस्य प्रतिनिधयश्च सहभागिनो वर्तन्ते। जलवायु वातावरण विपदां कारणेन विभिन्नेषु जनपदेषु जनधनानां क्षते वर्धनानन्तरं वातावरण प्रतिकार्य नेतृत्व समूहेन अनुसन्धानोद्धार सहयोग पुनस्थापना कार्याणि अतिरिक्त प्रभावकारिणी विधातुं सम्बद्धा निकाया निर्दिष्टा सन्तीति प्राधिकरणेन ज्ञापितं वर्तते। भारतस्य प्रधान सेनापति जनरल धीरज सेठ नेपाल भ्रमणस्य क्रमे ह्य काष्ठमण्डपम् प्राप्तो वर्तते। राष्ट्रपतिना नेपाली सेनाया परमाधिपतिना च रामचन्द्र पौडेलेन अद्य राष्ट्रपति कार्यालये आयोज्यमाने विशेष समारोहे प्रधान सेनापतये सेठ इत्यस्मै नेपाली सेनाया मानार्थ महारथी पदस्य चिह्नं प्रदीयमानम् अस्तीति नेपाली सेनाया प्रवक्ता राजाराम बस्नेत असूचयत। नेपाल प्रधान सेनापतेः भारतीय प्रधान सेनापतेश्च मध्ये सैन्य मुख्यालय अद्य द्विपक्षीय मेलवार्ता जायमाना स्थिति च प्रवक्ता बस्नेत असूचयत। नेपाल भारतयोर्मध्ये 85-29 ख्रीष्टवर्षतः परस्परं देशस्य सेनाप्रमुखाय मानार्थ महारथीपदीय चिह्नस्य प्रधानस्य परम्परा वर्तते। अद्य नागपञ्चमी पर्वणि हिन्दवः प्रतिगृहं देहल्या उपरिभागे नागानां चित्राणि संस्थाप्य पूजयन्ति। वराहपुराणस्य वचनानुसारेण नागराजेन वासुकिना सह ब्रह्मणः संवादः स्यामेव श्रावण शुक्ल पञ्चमी तिथौ सम्भूतहासीत् ततः प्रवृद्धे तिथिरेषा नागपञ्चमी नाम्ना प्रथिता नागपूजाया कृते उपयोगिनि च मता। इति समाचाराः।